एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। वृष्टेः न्यूनचापीय रेखा उत्तर दिशं प्रति उन्मुखास्तित्यतः अतः परं कतिसूचित दिवसेषु पुनः वृष्टेः सम्भावना अस्तीति जलवायु वातावरण विभाग विज्ञान विभागेन ज्ञापितं वर्तते। योऽपि देशस्य कतिसूचित भूभागेषु वृष्टिः सम्भूतासीत् अयं क्रमः अद्यतः अतिरिक्तं वर्धिष्यते इति विभागेन संसूचितम् वर्तते। अद्यतः न्यूनचापीय रेखा उत्तर दिशं प्रति उन्मुखा अस्तित्यतः तराई मधेश क्षेत्रेऽपि वृष्टेः सम्भावना दृष्टा अस्तीति जलवायु वातावरण विज्ञान विभागस्य पूर्वानुमान महाशाखायाः जलवायुविद् शान्ति कडेलः असूचयत्। वृष्टेः प्रणाल्यः सक्रिय भवनात् अतः परं दिनत्रयावधि वृष्टेः सम्भावना अस्तीति जलवायुविद् कडेलः असूचयत्। प्रधानमन्त्री केपी शर्मा ओली तुर्कमेनिस्तान देशस्य आवाज नगरे आयोक्ष्यमाणे भूपरिवेष्टित विकासशील राष्ट्राणां तृतीय संयुक्त राष्ट्र संघीय सम्मेलने सहभागी भवितुम् नेपाली प्रतिनिधि मण्डलस्य नेतृत्वं विदधान अद्य तत्र प्रतिष्ठते। अशैव श्रावणस्य दिवसा त्रयोविंशं दिवसं यावत् आयोक्ष्यमाणे सम्मेलने सहभागितायै तुर्कमेनिस्तान देशस्य राष्ट्रपतेः संयुक्त राष्ट्रसंघस्य महासचिवस्य एन्टोनियो गुटरेस इत्यस्य च औपचारिक निमन्त्रणायां प्रधानमन्त्री ओली तत्र प्रस्थास्यमानो वर्तते इति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। सम्मेलने अल्पविकसित राष्ट्राणां विश्वव्यापी समन्वय निकायस्य अध्यक्षस्य रूपेण प्रधानमन्त्रिणा ओलिना सम्बोधनस्य कार्यक्रमः निश्चितोऽस्ति। प्रधानमन्त्रिणा ओलिना भ्रमणावसरे सम्मेलनस्य एकस्य उच्चस्तरीयोपवेशस्य सहाध्यक्षतया सह अन्य विविधेषु कार्यक्रमेषु अपि सम्बोधनस्य कार्यक्रमः निर्धारितोऽस्ति इति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन सह प्रधानमन्त्रिणा केपी शर्मा ओलिना मेलवार्ता विहिता अस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य सम्पन्ने मेलने अनयोर्मध्ये प्रधानमन्त्री ओली तुर्कमेनिस्तान देशस्य अवाजा नगरे आयोक्ष्यमाणे भूपरिवेष्टित विकासशील राष्ट्राणां तृतीये संयुक्त राष्ट्र संघीय सम्मेलने नेपालस्य सहभागितायाः विषये विज्ञापितवान् अस्ति इति राष्ट्रपतेः सचिवालयेन ज्ञापितमस्ति। प्रधानमन्त्री केपी शर्मा ओली निगदति वामलोकतान्त्रिकान्दोलनानाम् अग्रजानां हुतात्मनां च संकल्पं पूरयितुं दृढतया कार्यं करणीयम्। तुलसीलाल स्मृति प्रतिष्ठानेन ह्य अष्टाविंशतितमस्य तुलसीलालस्य स्मृति दिवसस्य अवसरे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली देशभक्तिपूर्णान्दोलनस्य समृद्धिश्च स्वप्नं पूरयितुं वर्तमान सन्तत्या दृढतया अग्रे वर्धनीयम् इत्यत्र बलं प्रादात्। नेकपा एमाले दलस्य अध्यक्षः प्रधानमन्त्री च ओली तुलसीलाल इत्यस्य राजनीतिकम् आदर्शम् अनुसृत्य अग्रे गमनस्य संकल्पो विधेयः इत्यवोचत्। मधेश प्रदेशस्य जनपदेषु विद्यमानासु कृषियोग्य भूमिषु 0.2750% क्षेत्रे एव अधुनावधि धान्यरोपणं विहितं वर्तते। मधेश प्रदेशे विद्यमानस्य सम्पूर्ण क्षेत्रफलस्य लक्ष्यत्रयं 2,75,45.67 हेक्टर परिमाणस्य भूम्यां प्रतिवर्षं धान्यकृषिः विधीयते स्म, परन्तु अधुनावधि लक्ष्यद्वयं 23,93.9548 हेक्टर परिमाणस्य क्षेत्रफले एव धान्यकृषिः सम्भूता अस्ति इति मधेश प्रदेशस्य भूमि व्यवस्था सहकारी मन्त्रालयेन ज्ञापितं वर्तते। मधेश प्रदेशस्य बारा पर्सा रौतहट सर्लाही जनपदेषु धान्यरोपणं सन्तोषजनकरूपेण विहितं सदपि धनुषा महोत्तरी सिरहा सप्तरी जनपदेषु शुष्कतायाः अधिक प्रवाह सम्भूतोऽस्ति इति मन्त्रालयस्य वरिष्ठ कृषि विकासाधिकृतः अविनाश झा असूचयत्। मधेशस्य प्रायः कृषकाः अधुनापि आकाशीय वृष्टिं प्रयुज्य धान्यकृषिं कर्तुं बाध्या वर्तन्ते। मधेश प्रदेश सर्वकारेण 18 कोटिः रूप्यकाणां व्ययेन स्यालो च्यूवेल इति नलिकायाः वितरण प्रक्रिया प्रारब्धा अस्ति। मधेश प्रदेशस्य भूमि व्यवस्था कृषि सहकारी मन्त्रालयेन अनावृष्टेः कारणेन शुष्कताग्रस्तेभ्य क्षेत्रेभ्यः सहयोग प्रदान कार्यक्रमस्य अन्तर्गतं प्रदेशस्य अष्टौ जनपदेषु कृषकेभ्यः स्यालो ट्यूबवेल इति नलिकायाः वितरण प्रक्रिया प्रारब्धास्ति। प्रदेशस्य धनुषा महोत्तरी सर्लाहि रौतहट बारा पर्सा सिराहा सप्तरी जनपदेषु पेयजलस्य सेचन जलस्य च अभावेन पीडितेभ्य कृषकेभ्य सम्बद्धात् कृषि ज्ञान केन्द्रस्य कार्यालयात् स्यालो ट्यूबवेल नलिकाया वितरण प्रक्रिया प्रारब्धास्तीति मन्त्रालयस्य प्रवक्ता सरोज चौधरी असूचयत्। इलाम जनपदस्य मुख्यालयस्य झापा जनपदस्य बिर्तामोड़ स्थानयोजकस्य लघुदूर्या केचना कञ्चनजंगा मेची तटीय मार्गखण्डस्य अन्तर्गतायां पुआ खोला नद्यां बेलीब्रिज लौह सेतोः निर्माण कार्यं सम्पन्नमस्ति। संघीय सर्वकारस्य एककोटिः पञ्चत्रिंशत् लक्ष्याणांश रूप्यकाणां व्ययेन 0.6 मीटर मित दूर्या लौह सेतोः निर्माण कार्यं सम्पन्नमस्तीति इलामवर्तिनः मार्ग महाशाखा कार्यालयस्य सूचनाधिकारी स्थपतिः अर्जुन घिमिरे असूचयत्। अनेनैव सहैव इलाम नगरपालिकायाः नवमैका दशवटा क्षेत्रयोः योजिकायां पुआ खोला नद्यां प्रथमवारं लौह सेतोः निर्माणस्य पश्चात् स्थानीय जनानां झापा इलाम पासथर ताप्लेजुङ जनपदेषु गन्तुकामानां जनानां कृते लघुदूर्या सुरक्षित मार्गस्य विकल्प समुद्घाटितो वर्तते। सेतोः निर्माणेन 37 किलोमीटर मितदूर्या मार्ग लघु सम्भूतो स्थिति स्थपतिः घिमिरे असूचयत्। बाजुरा जनपदस्य प्रमुखस्य व्यापार केन्द्रस्य बामका बजार इति आपणस्य पुनर्निर्माण कार्यं सम्पन्नमस्ति। गत ज्येष्ठ मासस्य त्रयोविंशे दिवसे दूरापन्नस्य अग्निदाहस्य कारणेन क्षतिग्रस्त आपण आसन्न मासद्वयानन्तरं पुनर्निर्मितो वर्तते। बुढीगंगा नगरपालिकाया षष्ठे वडा क्षेत्रे विद्यमानस्य बामका आपणस्य सर्वकारीय कार्यालयानां सर्वकारीयेतर संस्थानां स्थानीयानां जनानांश सहयोगेन पूर्ववती एव स्वरूपे पुनर्निर्माणं विहितमस्ति। बुढीगंगा नगरपालिकाया प्रमुखस्य रामबहादुर बानिया इत्यस्य अनुसारेण बामका बजार आपणे पूर्णतया क्षतिग्रस्तानां त्रयोदश भवनानां आंशिक रूपेण क्षतिग्रस्तानां नवसंख्यातानां भवनानां च संयुक्त रूपेण पुनर्निर्माणं विहितमस्ति।